अथ कृष्णस्तोत्रम्। इन्द्र उवाच, अक्षरं परमं ब्रह्म ज्योतिरूपं सनातनं गुणातीतं निराकारं स्वेच्छामयमनन्तजं भक्तध्यानाय सेवायै नानारूपधरं वरं शुक्लरक्तपीतश्यामं युगानुक्रमणेन च शुक्लतेजस्वरूपं च सत्ये सत्यस्वरूपिणां त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा द्वापरे पीतवर्णं च शोभितं पीतवाससा कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुं नवधाराधरोत्कृष्ट श्यामसुन्दरविग्रहं नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुं गोपिकाचेतनहरं राधाप्राणाधिकं परं विनोदमुरलीशब्दं गुल्वन्तं कौतुकेन च रूपेण प्रतिमेनैव रत्नभूषणभूषितं कन्दल्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरं क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् कुत्रचिन्निर्जनेरन्ये राधावक्षस्थलस्थितं जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकं राधाचल्पिततांबूलं गृह्णन्तं कुत्रचिन्मुदा पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलं राधादत्तां गले मालां धृतवन्तं च कुत्रचित् सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् विप्रपत्नी दत्तमन्नं भुक्तवन्तं च कुत्रचित् भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह कालीयमूर्ध्निपादाब्जं दत्तवन्तं च कुत्रचित् विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह स्तुत्वा शक्रस्तवेन्द्रेण प्रणनाम हरिं भिया पुरा दत्तेन गुरुणा रणेर्वित्रासुरेण च कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते एकादशाक्षरो मन्त्र कवचं सर्वलक्षणं दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा तेन चाङ्गिरसे दत्तं गुरवेङ्गिरसां मुने इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् इह प्राप्य दृढां भक्तिम् अन्ते दास्यं लभे ध्रुवम् जन्म मृत्यु जराव्याधि शोकेभ्यो मुच्यते नरः न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् इति श्रीब्रह्म वैवर्ते इन्द्रकृतं कृष्णस्तोत्रं समाप्तम्।